Sorry. Yes, I think I was on mute. I just did the mangalam. So, idanim shruyate kila.
We can hear you.
Yeah. Raghuvamshasya. Chitanam shlokanam adhyayanam asmabhihi kriyamanam asti. Rajadilipaha. Ekavimshatim dinani avat. Vasishthasya homadhenmaha nandinyaha sevam karoti prajartham santatim uddishya dvavimshe dine sa nandini simhena akranta sacha simhaha nakevalam mrigaha apitu sakshat parameshwarasya anucharaha kumbhodaraha iti simhasya vachanaireva jnayate jnatva dilipaha किमपि कर्तुम् अशक्तः तस्य हस्तः स्तब्धः अतः सः बाणप्रयोगं कर्तुम् अशक्तः स्वस्य देहं स्वीकृत्य धेनुं त्यक्तुं सिंहं प्रार्थयते सिंहः बहुधा तं बोधयति एतत् न युज्यते मूर्ख्यम् इत्यादि किन्तु दिलीपः स्वस्य निर्धारात् न विचलितः निशम्य देवानुचरस्य वाचं मनुष्य देवः पुनरप्युवाच धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः सेयं स्वदेहार्पणनिष्क्रयेण न्याय्यामया मोचयितुं भवत्तः न पारणा स्याद्विहता तवैवं भवेरलुप्तश्च मुनेः क्रियार्थः सो देर् आर् सेवरल् श्लोकास् एक्चुली इन् अ सीरीस् सो हि स्टार्ट्स् बै सेयिङ्ग् दट् Kshatatkilatrayata ityudagraha. So, not protecting the cow would amount to him admitting that he was not a kshatriya at all. Okay, so, the dharmahani was one. Second was that no other cow could ever replace Nandini because Imam Anunam Surabhairavehi. She is as good as Kamadhenu. So, he says it is only fitting that I release the cow from you by exchanging with my own body. So this is a win-win situation as your food is also not lost and my guru's Homa Sadhana Nandini is also not lost. Okay. So etavad drishtam agre punaha rajnyaha vachanani santi punaha agre api saha vadati. किं वदति भवानपीदं परवानवैति महान् हि यत्नस्तवदेव दारौ स्थातुं नियोक्तुर्नहि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन कालिदासस्य वचनानि अत्यन्तं मधुराणि पुनः पुनः मननयोग्यानि भवन्ति दिलीपः कथयति भवानपि परवान् अहं न स्वतन्त्रः किमर्थम् अहं मम गुरोः अधीनः भवानपि परवान् अर्थात् स्वतन्त्रः न सो यु आर् आल्सो अण्डर् द कण्ट्रोल् आफ् युवर् मास्टर् विच् इस् शिव परमेश्वरस्य अधीनः स्थातुं नियोक्तुर्न हि शक्यमग्रे विनाश्य रक्ष्यं स्वयमक्षतेन यः कोऽपि किमपि दायित्वं निदधाति अस्मासु कार्यं कथं वा नश्यतु अहं केवलं सुखी अस्मि इति वक्तुं शक्यते वा रक्ष्यं विनाश्य हेविङ्ग् डेस्ट्राय्ड् दट् विच् इस् टु बी प्रोटेक्टेड् स्वयम् अक्षतेन बट् वन् सेल्फ् बीयिङ्ग् अन्हार्म्ड् न हि शक्यम् इट् इस् इम्पासिबल् अग्रे स्थातुं टु स्टाण्ड् इन् फ्रण्ट् हौ डु ऐ एवर् गो इन् बिफोर् वसिष्ठ एण्ड् से दट् ऐ एम् फैन् बट् युवर् कौ इस् लास्ट् Can you do that? He is putting the Simha in the same place. If this Devadaru Vriksha is destroyed, how do you face Shiva and say that I couldn't do anything? That is you, Dilipaha Kathayati, Maranam Varam. It is better to die in the effort to protect that which was entrusted to you rather than losing that and being unharmed oneself. So, रक्ष्यं विनाश्य स्वयं अक्षतेन sthatum nahi shakyam. It is impossible to go before the master and say that I have failed in my duty. Iti kathayati. So again, just like the Simha makes different arguments, Dilipaha api bahudha kathayati. Bhinnaihi prakaraihi swasya nirdharam samarthayati. Evam uktva agre vadati. Kimapyahimsya stavachenmatoham yashashsharire bhavame dayaluhu. Mama vishaye kripa asti chet, if you feel sorry for me. सिंहः वदति किल भवान् गच्छतु किमर्थम् एकस्याः धेन्वाः कृते भवान् सर्वं नाशयति एकातपत्रं जगतः प्रभुत्वं नवं वयः कान्तमिदं वपुश्च इति तत्र कुत्रापि मम इच्छा नास्ति किन्तु एकत्र इच्छा अस्ति कुत्र यशःशरीरे यशोरूपं कीर्तिरूपं यत् शरीरं तत्र दयालुः भव सो प्लीज शो पिटी ऑन my fame, the body of fame. Yashaha eva shariram, yashas shariram. Idam bhautikam shariram nashyatu, tatra mama chinta nasti. Kintu, kirti rupam yat shariram asti, tatra mama ichha asti, ataha kripaya tasya vishaye bhavan dayam pradarshayatu. Yatohi yadi raja jivati, tarhi tasya shariram asti, केभ्यश्चित् वर्षेभ्यः अनन्तरं तत्तु नश्यत्येव किन्तु कीर्तिरूपं यत् शरीरम् अस्ति तत्तु अविनाशी भवति अतः यशःशरीरे भव मे दयालुः एकान्तविध्वंसिषु मद्विधानां पिण्डे श्वनास्था खलु भौतिकेषु भौतिकेषु पिण्डेषु जस्ट् दिस् मेटीरियल् बाडी anastha, I don't care for this material body. Why? Ekanta vidvam sishu. It is bound to be destroyed at any moment. Adya nochet shvaha nashyatyeva. Shvaha nochet varshadvayanantaram nashyati. Ataha tadrisha sharire mama astha ichha nasti. Mama yashas sharire dayaluhu bhava. Ante saha kathayati. Sambandham abhashana purvam ahuhu. Dvayohu sambandhaha. कथं भवति स्नेहः सौहृदं कथं भवति सम्भाषणपूर्वं मिलित्वा कञ्चित् कालं सम्भाषणं क्रियते चेत् तत्र सम्बन्धः भवति सो हौ डू रिलेशन्स् आर् फ्रेण्ड्शिप्स् डेवलप् बै कान्वर्सेशन् वृत्तस्वनौ सङ्गतयोर्वनान्ते वनान्ते सङ्गतयोः नौ सो आवामिदानीम् अस्मिन् वनप्रदेशे सहसा परस्परं मिलितौ अत्र सम्भाषणमपि जातम् अतः आवयोः परस्परम् इदानीं सम्बन्धः अस्ति सो वी आर् नौ फ्रेण्ड्स् वित् ईच् अदर् अतः तद्भूतनाथानुग नार्हसित्वं सम्बन्धिनो मे प्रणयं विहन्तुं सो प्लीज् डोण्ट् रिजेक्ट् द रिक्वेस्ट् आफ् अ फ्रेण्ड् ऐ एम् रिक्वेस्टिङ्ग् यू एस् अ फ्रेण्ड् प्लीज् टेक् मी अण्ड् रिलीस् द कौ एवं बहुधा सिंहं प्रार्थयते दिलीपः गां त्यक्त्वा आत्मानं स्वीकर्तुं राइट सो ततः परं श्लोकः तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठं भविमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत् पिण्डमिवामिषस्य ये अनुवक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु अन्नलक्ष्मी भगिनी न श्रूयते हरि ओम् केन् यू प्लीज़ चेक् योर् मैक्रोफोन् ऐ एम् अनेबल् टु हियर् यू अन्नलक्ष्मी आर् Okay. Anybody else? Rama Bhagini.
Hariyo.
Ah. तथेति गामुक्तवते दिलीपः
तथेति गामुक्तवते दिलीपः तथेति गामुक्तवते दिलीपः
सद्यः प्रतिष्ठम्भ विमुक्तबाहुः
सद्यप्रतिष्ठम्भविमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत्पिण्डमिवामिषस्य
पूर्णं श्लोकं पठतु
तथेति गामुक्तवते दिलीपः सद्यप्रतिष्ठम्भविमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत्पिण्डमिवामिषस्य
परच्छेदः
तत प्लस इति गाम उक्तवते दिलीपः सद्यः प्रतिष्ठम्भ विमुक्तबाहुः सः न्यस्तशस्त्रः हरये स्वदेहं उपानयत् पिण्डम् इवामिषस्य तत् इति गुणसन्धि गाम उक्तवते नो सन्धि देन् सः न्यस्तशस्त्रः विसर्गसन्धि न्यस्तशस्त्रः हरे विसर्गसन्धिः विसर्गस्य लोपः विसर्गस्य उकार
उकारादेशः
अपरं देन् पिण्डम् इवामिषस्य इव आमिषस्य स्वर सवर्णदीपसन्धि
सम्यक् तथा इति गाम उक्तवते दिलीपः सद्यः प्रतिष्ठम्भ विमुक्तबाहुः सः न्यस्तशस्त्रः हरये स्वदेहम् उपानयत् पिण्डम् इव आमिषस्य तथा इति तथेति गुणसन्धिः दिलीपः सद्यः यदा मिलित्वा उच्चारणं क्रियते तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भ सो इफ् वी आर् नाट् ब्रेकिङ्ग् एट् द एण्ड् आफ् द पाद तत्र विसर्गस्य सकारः भवति उच्चारणे दिलीपः सद्यः इति विसर्ग इस् आल्सो एन् आप्शन् इट् केन् आल्सो बि रिटन् सिमिलर्ली सद्यः प्रतिष्ठम्भ इत्यत्र विसर्गस्य उपध्मानीयः उच्चारणे श्रूयते सः न्यस्तशस्त्रः सः तच्छब्दस्य हलिपरे वेन् द सः आर् एषः इस् फालोड् बै एनी कान्सोनेण्ट् विसर्गस्य लोपः भवति अतः सन्न्यस्त इति भवति न्यस्तशस्त्रः हरये तत्र विसर्गस्य उत्वम् उकारादेशः गुणः इव आमिषस्य इवामिषस्य सवर्णदीर्घः तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भ विमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत् पिण्डमिवामिषस्य कः अर्थः तथेति सिंहः तथास्तु इति अङ्गीकृतवान् दिलीपेन किमुक्तं मम देहं स्वीकृत्य धेनुं त्यज इति उक्तवान् दिलीपः तदा अस्तु इति अन्ते सिंहः अङ्गीकरोति झटिति किं भवति दिलीपः बाहुः मुक्तः सो हिज् आर्म् इस् रिलीज्ड् इफ् यु रिमेम्बर् वि डिन्ट् डू दट् श्लोक इन् द सिलबस् बट् चित्रार्पितारम्भ इवावतस्थे आल् दिस् वैल् दिलीपस् आर्म् हेस् बीन् स्टक् इन् हिस् क्विवर् हि ट्रैस् टु पुल् औट् अन् एरो बट् हि इस् अनेबल् टु मूव् हिस् हेण्ड् Now it is released. Pratishtambha vimukta bahuho nyasta shastraha ayudham tyaktva haraye simhaya atma shariram arpitavan. He offered his body to the lion. Iti arthaha. Atra kriyapadam kim?
Kriyapadam upanayat.
Upanayat. Iti kriyapadam.
Upanayat. Pratama vibhakti dilipaha सह प्रतिष्ठम्भ विमुक्त बाहुः न्यस्त शस्त्रः प्रथमा विभक्ति द्वितीया विभक्ति गाम स्वदेहं पिण्डम् चतुर्थी विभक्ति हरये उक्तवते उक्तवते षष्ठी आमिषस्य अव्ययम् इति तथा
तथा इति सद्यः
सद्यः
अव्ययम् इव पिण्डम् इव आमिषस्य इव इति अव्ययानि सम्यक् अन्वयः
कः उपानयत् सः दिलीपः कीदृशः सः न्यस्तशस्त्रः पुनः कीदृशः दिलीपः प्रदिष्टं भवि मुक्तबाहुः कदा प्रदिष्टं भवि मुक्तबाहुः सद्यः कम् उपानयत् स्वदेहं किम् इव उपानयत् पिण्डमिव कस्य पिण्डम् आमिषस्य पिण्डम् कस्मै उपानय हरये उपानय कीदृशाय हरये उक्तवते हरये काम् उक्तवते गाम् कीदृशीं गाम् तथा इति गाम्
सम्यक् उत्तमम् सो उपानयत् उपनयति इति समर्पितवान् इत्यर्थे प्रयोगः उपाहारः इत्यपि प्रयोगः अस्ति गिफ्ट् समर्पणम् एज़ एन् आफरिङ्ग् इत्यर्थः उपानयत् समर्पितवान् कः सः दिलीपः राजा दिलीपः कीदृशः दिलीपः प्रतिष्ठम्भ विमुक्त बाहुः प्रतिष्ठम्भः तस्मात् विमुक्तः बाहुः यस्य सो ही हूज़ आर्म इज फ्रीड फ्रॉम प्रतिष्ठम्भ प्रतिष्ठम्भ इज द ब्लॉक और द फ्रोजन स्टेट सो स्तब्धं भुजं पुनः चालयितुं शक्तः इत्यर्थः सो बीइंग एबल टू मूव हिज हैंड अगेन प्रतिष्ठम्भ विमुक्त बाहुः दिलीपः कदा विमुक्त बाहुः सद्यः तत्क्षणे यदा सः सिंहः अङ्गीकृतवान् झटिति तस्य बाहुः प्रतिष्ठम्भात् विमुक्तः पुनः कीदृशः दिलीपः न्यस्तशस्त्रः न्यस्तं शस्त्रं शस्त्रन्यास न्यास इस् टु गिव् अप् सो टु कीप् हिज् आर्म्स् असैड् विसृष्ट आयुधः स्वस्य आयुधं पार्श्वे स्थापयित्वा किम् उपानयत् और् कम् उपानयत् स्वदेहम् आत्मनः शरीरं सः समर्पितवान् कस्मै उपानयत् हरये अत्र हरिशब्दस्य सिंहः इति अर्थः अग्रे व्याकरणभागे पश्यामः हरिशब्दः नानार्थकः तत्र वस्तुतः षोडश अर्थाः सन्ति हरिशब्दस्य प्रसिद्धः विष्णुः इत्यर्थः अस्ति कपिः इत्यस्ति अश्वः इत्यस्ति इन्द्रः सिंहः अत्र तु सिंहः इत्यर्थः आल्सो इट् इस् पासिबल् दट् कालिदास इस् हिण्टिङ्ग् एट् द कृष्णार्पण दट् इस् हौ वि डु हरये उपानयत् ओके वित् द इट् ईस् एन् इण्डिकेटर् आफ् द एटिट्यूड् वित् विच् दिलीप गिव्स् अप् हिम्सेल्फ् इट् इस् नाट् दट् ही इस् रिलक्टेण्ट् आर् ओके देर् इस् नो अदर् वे ऐ हेव् टु डू इट् he does it as an offering with that feeling of arpana. That is possible. It's a dhvani. Why he chooses exactly haraye? One is, of course, to fit the chandas. But Kalidasa need not do only that. He is not a poet who is so limited in his word. So wherever he uses a specific word, there is a significance to it. So haraye upanayat. Kidrishaya haraye uktavate. Kathitavate. He who has said. Kim uktavate gam. You can say kam uktavate or kim uktavate ubhayam yujyate. So gam. Go shabdaha api nanarthakaha. Again, go is another word which has a wide range of meanings. Though we very commonly use it as a cow. Go shabdasya bahavaha arthaha santi. Atra vanim ityarthaha. Vacham uktavate. Spoke the words. Kim iti gam. Athava kidrishim gam uktavate. Tatha iti. Tatha is an expression of angikara. Evam astu. Tathastu is very common. So, okay. That's all. So, the lion said, okay. Immediately, Dilipa was freed from, his arm was freed. He kept his arms aside and offered himself to the lion. Tatra, kim iva upanayat. Swadeham upanayat. Kim iva, pindam iva. Pindam kavalam. It is like a mass, a lump. Pindam ityasya, lump ityartha. It carries that lifeless thing. Okay, tatra pindam iti yada kathyate uchyate bahutra shraddhadikam api pinda pradanam ityadi bhojanam ityarthaha bhojanasya kavalam, but it also carries the significance of something which is lifeless. So he is offering his own body with that detachment. Mallinathaha kathayati nirmamatvam kathyate. So offering his own body, it is as if he is giving some lump of meat to this one with no resentment, no sadness, no such feelings. So that attachment is indicated by this upamana. So pindam iva, kasya pindam iva, amishasya, mamsasya. So you are just throwing some flesh to a lion, say maybe in a zoo or somewhere. So with a similar attitude, as detached as that, Dilipaha atmanaha deham eva arpitavan. Amisham ityasya mamsam ityartha. Evancha anvayaha tatha iti gam uktavate haraye sadyaha pratishtambha vimukta bahuhu nyastashastraha dilipaha swadeham amishasya pindam iva upanayat. Evamastu iti angikara suchikam vanim kathitavate simhaya. So the moment the lion said, okay, let it be so. Tatkshane stabdham bhujam punaschalayitum shaktaha dilipaha. So Dilipa was able to move his hand. Visrishtayudhaha san. So keeping his bow and arrow aside. Atmanaha shariram. His own body. Mamsasya kavalam iva. Like a lump of meat. Haraye simhaya samarpitavan. The word simhaya is missing here. Offered his own body to the lion. Spashtam. Kepi prashnaha santiva. Tatheti gamuktavate dilipaha. Sadyah pratishtam bhavimuktabahuhu. Sanyastashastro haraye swadeham. Upanayat pindamiva mishasya. Saha is missing in Anvaya. Saha dilipaha. Nyasta shastraha saha dilipaha. I'll correct it while uploading. Gam ityasya kahartha. Vacham ityarthaha. The words. So he, the lion said the words. Tatha iti okay. The lion said the word okay. Tavadeva artha. Go shabdasya atra vani athava vak ityartha. Okay. Agre gachamaha. Vyakaranamshaha ye vaktum icchanti. Kripaya hastam unnayantu.
Namaste.
Tatha iti iti avyayam.
Yeah. Gam. It's a go shabdaha. Okarantaha pullingaha didiya vibhakti ekavachanam.
Go shabdaha ubhayathapi asti. Pullinge, strilinge.
Okay.
When it means a cow, it is used in both. Anyeshu artheshu visheshyavani ityarthe samanyataha strilinga shabdaha.
Okay.
So, tatra amarakoshe uchyate swarga, ishu, pashu, vag, vajra, dik, netra, ghrini, bhu, jale. So, these are some of the meanings of the go shabda. Okay. So, swarga, swargaha, heaven ityarthaha asti. Ishuhu baanaha ityarthaha, pashuhu, the animal, which we all, that is the most popular, vak, speech, vajra, the thunderbolt, dik, that is the direction, netra, ai, ghrini, ghrini is the ray, the sun's rays, they are called gauhu, ghrini, bhu, the earth is called gauhu, jalam. So evam bahavaha arthaah asti santi go shabdasya atra tu vak ityarthaah prasangashah nyayate. Uktavate.
Uktavate, that's uktavan, that's nakarantah pullingah. Chaturthi vibhakti
not ekavachanam. Nakaranta, this one.
Oh, dakaranta, you said? Okay.
Pratipadika is takaran, uktavat.
Uktavat.
Vibhaktau uktavan iti, kintu uktavat pratipadikam. Uktavan,
okay.
Uktavantau, uktavantaha iti. Ataha takarantaha, pullingaha.
Okay. And chaturthi vibhakti ekavachanam.
Chaturthi ekavachanam. Paha pratyayaha tatra.
Vaj dhatuhu, right? And and kattvatu iktavatu pratyayah.
Iktavatu. So vachadhatuhu athava brudhatuhu ubhayohu samanam rupam bhavati. Iktavatu pratyayah bhavati. Kridanta shabdah uktavat iti. Samyak. Dilipaha sadhyaha.
Sadhyaha is avyaya, right?
Avyayam. Sadhyaha iti avyayam. Sadhya sapadi tatkshane iti amaraha. So immediately. Ityarthe sadhyaha iti avyayam upayujyate. Pratishtambha vimukta bahuhu.
Okay. Ukarantaha pullinga prathama vibhakti ekavachanam. And so pratishtambham vimukta, pratishtambha vimukta bahuhu. Pratishtambham vimuktaha, or when I say pratishtambha muktaha bahuhu yasyasaha, that's the samadhikarna bakuvirighi.
Correct.
And the first one, I'm not quite sure whether it is pratishtambham vimuktaha, is it a tvadi?
Tritiya, released by that. Freezing thing. Pratishtambhena vimuktaha. Etakta pratyayaha bhavati. Tatra samanyataha tritiya tatpurusha. It can either be bahuvrihi or tritiya tatpurusha based on the context. Tatra pratishtambhena vimuktaha. Yada etad bhavati kim vakye pratishtambhat vimuktaha iti apadanatvam bhavati. Panchami vibhaktihi bhavati. So released from that. Samasaha tatra kleshaya. It's a bit difficult because there is no sutra to justify panchami tatpurusha. Panchami vibhaktihi bhavati. Pratishtambhat vimuktaha iti vakye prayogaha kriyate chet. Panchami is more befitting the context. Kintu samase sutrasya kleshaha. So, tritiya tatpurushaha bhavati. Panchami tatpurusha, if we split it in panchami, a bit difficult to justify. So, pratishtambhena vimuktaha, pratishtambha vimuktaha, tritiya tatpurushaha, pratishtambha vimuktaha, bahuhu yasya saha iti bahuvrihi samasaha. Dhanyavadaha. Mahadevan Mahadaya.
Namaste. Saha tat shabdasya prathama vibhakti ekavachanam pullinge. Nyasta shastraha akaranta pullingaha prathama vibhakti ekavachanam. Nyastaha sorry nyastam shastram yena saha nyasta shastraha.
Samyak. Nyastam shastram yena saha nyasta shastraha iti bahuvrihi samasaha. Haraye.
Haraye iti chaturthi vibhakti ekavachanam hari shabdasya ikaranta pullingaha.
Ikarantaha pullingaha hari shabdaha chaturthi ekavachanam yatha uktam yamanilendra chandrarka vishnu simhamshu vajishu shukahi kativhekeshu harirna iti amarah yamaha anilaha anilaha ityukte vayuhu indraha chandraha arkaha suryaha vishnuhu simhaha amshu ityukte kiranaha vaji ashvaha shukaha ahihi sarpaha kapihi bhekaha bhekaha ityukte mandukaha evam eteshu sarveshu artheshu harishabdasya prayogaha asti iti amarakoshe asti atra prasangavashat. Okay, so there is also, it's very interesting on when there are nanarthaka words, how do we decide on the meaning. So if we look at some of the advanced Vyakarana texts or even other Shastra texts, they say that in Anarthaka words, there are so many different ways in which you can decide which is the meaning. Okay, so they give a lot of example. In some cases, it depends on the context. Arthaha, Prakaranam, Lingam, and so on. Okay, so there is a Sadrishyam. So depending on who it is. For example, if I say Rama Lakshmanau, so Rama is Sri Rama, that is Dasharathi. But if I say Rama Krishnau, so Balaramaha Krishnaha, there it could be Balarama. Or if I say Rama Arjunau, it could be Parashurama and Kartavirya Arjuna. So based on so many such things, it's very interesting. So sometime you should study that. There is a very detailed study on how the meaning of a word is determined if the word is nanarthaka. Okay, in general we say based on context, but what kind of a context? So it is not just the contextual meaning. So what is that context and what is it in the context that determines the meaning? Okay, so tatha asti atra tu spashtam asti. I mean by here it's very clear. So haraye ityatra simhaya ityarthaha svadeham.
Svadeham akaranta pullingaha dvitiya vibhakti ekavachanam svadeham.
Akarantaha pullingaha dvitiya ekavachanam samasaha.
Samasaha svasya dehaha svadehaha artham.
Shashti tatpurushaha upanayat.
Upanayat iti upa iti upasargaha. Ni dhatoho anayat iti lang parasmai kavi lang prathama prathama purushe ekavachanam.
Upa upasarga purvakasya ni dhatoho lang lakare prathama purushe ekavachanam. Niny prapane iti dhatuho samipam prapayati to take near. And to gift ityarthaha bhavati. Pindam.
Pindam. Pindam. Napumsakalingam.
Pullinge napumsakalinge ubhayatha piyasati.
Didiya vibhakti ekavachana.
Amishasya.
Amishasya. Napumsakalinge.
Shashti vibhakti ekavachanam. Amisha iti akarantaha napumsakalingaha shashti ekavachanam. पिशितं तरसं मांसं पललं क्रव्यम् आमिषम् इति अमरे अस्ति. सो मांसं पललं क्रव्यम् इत्यादयः समानार्थकाः. धन्यवादाः. अत्र केचन प्रश्नाः सन्ति. स्तम्भ इत्यस्य व्याकरणांशः प्रतिष्ठम्भः प्रति उपसर्गपूर्वकः स्तम्भधातुः. तत्र घञ् इति प्रत्ययः भवति कृदन्तः. सो फोर् नौ एट् दिस् स्टेज् वि आर् लुकिङ्ग् एट् द कम्प्लीट् वर्ड् तस्य. किन्तु प्रतिष्ठम्भः इति कृदन्तः प्रति उपसर्गपूर्वकस्य स्तम्भधातोः घञ् प्रत्ययान्तः. न्यस्तशस्त्रः इत्यत्र न्यस्तं शस्त्रं यस्य सः द वन् हु शस्त्रास् वास् लास्ट् आर् रिमूव्ड् इति भवेद्वा इति प्रश्नः. नो नो, न्यस्त डस् नाट् मीन् इट् वास् लास्ट्. इट् मीन्स् दट् ही केप्ट् इट् असैड्. सो द शस्त्रन्यास इस् वेर् अ पर्सन् हू इस् होल्डिङ्ग् द वेपन् is keeping it aside voluntarily or being forced, whatever. Even in the very famous case of Shastra Sanyasa is Bhishma, who kept aside his arms on seeing Shikhandi. Okay. So Shastra Sanyasa is where the Karta is Dilipa. He himself kept his Ayudha aside. Okay. अतः न्यस्तः न्यस्तं शस्त्रं येन कर्तृवाचक तृतीया विभक्तिः एव युज्यते. केन् वि स्प्लिट् गाम् उक्तवते एस् गाम् मुक्तवते? वि डोण्ट् हाव् अ वे टु रिमूव् द मकार. तत्र मूलपाठे मकारः न दृश्यते. यदि गाम् मुक्तवते इति छेदः तदा गाम् मुक्तवते इत्यत्र मकारः श्रूयेत. वि नीड् अ डबल् मकार देर्. So since it is not there, and I think the vyakhyanas are clear that it is uktavate. In swadeham upanaya, how can we decline each part separately? Do you mean, since it is a samasa and not meant to be broken, which one? In swadeham, swadeham ityatra samasah asti ekameva padam. Swadehah, swasya dehah, swadehah iti samasah. Tasya padani bhavati. Upanayat iti tu kriya padam. Upa iti upasargah, ni iti dhatuhu. So like say agachat, agachati langlakare agachat. उपनयति लङ्लकारे उपानयत्. तत्र तिङन्तं समासः नास्ति तत्र. अस्तु, अग्रे गच्छामः. तथेति गामुक्तवते दिलीपः सद्यः प्रतिष्ठम्भ विमुक्तबाहुः सन्न्यस्तशस्त्रो हरये स्वदेहम् उपानयत् पिण्डमिवामिषस्य. अत्र उपमालङ्कारः पूर्णोपमा. सो आमिषस्य पिण्डम् इव स्वदेहम् उपानयत् इत्यत्र स्वदेहः उपनेयः उपमेयः. आमिषस्य पिण्डम् इति उपमानम्, इव इति उपमावाचकः, उपनयनम् सो टु आफर् इति साधारणधर्मः. अतः अत्र पूर्णोपमा अलङ्कारः. उपजातिः प्रथमचतुर्थपादयोः उपेन्द्रवज्र, मध्ये द्वयोः इन्द्रवज्र विद्यते. अग्रिमं श्लोकं पश्यामः. तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतस्सिंहनिपातमुग्रम् अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. जय श्री भगिनि.
नमस्ते भगिनि.
तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतस्सिंहनिपातमुग्रम् अवाङ्मुखस्योपरि पुष्पवृष्टिः
अवान्मुखस्योपरि पुष्पवृष्टिः
पपात विद्याधरहस्तमुक्ता
पपात विद्याधरहस्तमुक्ता
पूर्णं श्लोकं पठतु
तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातमुग्रम् अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता
पदच्छेदः
तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् अवाङ्मुखस्य उपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता
सन्धिः
सन्धिः पालयितुः प्रजानाम् उपध्मानीयः उत्पश्यतः सिंह विसर्गस्य सकारः अवाङ्मुखस्य उपरि गुणसन्धिः पुष्पवृष्टिः पपात उपध्मानीयः तावदेव अस्ति
तत्र अवाक् मुखस्य इति अस्ति तत्र कः सन्धिः ककारस्य स्थाने ङकारः
अनुस्वारसन्धिः अनुनासिकसन्धिः
सम्यक् सो पालयितुः प्रजानां पुष्पवृष्टिः पपात इत्यत्र उपध्मानीयः उत्पश्यतः सिंहनिपातं सकारः अवाङ्मुखस्य इत्यत्र अनुनासिकसन्धिः अवाङ्मुखस्य उपरि अवाङ्मुखस्योपरि इत्यत्र गुणसन्धिः तस्मिन् क्षणे पालयितुः प्रजानाम् उत्पश्यतः सिंहनिपातम् उग्रम् अवाक्मुखस्य अवाङ्मुखस्य उपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता किं जातम् उग्रं सिंहनिपातम् उत्पश्यतः अवाङ्मुखस्य सो दिलीपः सिंहस्य पुरतः अधोमुखः उपविशति अथवा तिष्ठति दट् इस् नाट् क्लियर् बट् ही फेसस् डौन् अण्ड् ही इस् आफरिङ्ग् हिम्सेल्फ् टु द लयन् अण्ड् वाट् डस् ही एक्स्पेक्ट् ही एक्स्पेक्ट्स् द लयन् टु पौन्स् आन् हिम् सिंहनिपातम् उग्रम् उत्पश्यतः किन्तु किं पपात वाट् फेल् आन् हिम् पुष्पवृष्टिः पपात इत्यर्थः अत्र क्रियापदं क्षम्यताम्
क्रियापदं पपात
इति क्रियापदं प्रथमा विभक्तिः
पुष्पवृष्टिः विद्याधरहस्तमुक्ता पालयितुः अपि वा
न तत् षष्ठी
द्वितीया विभक्ति उग्रं सिंहनिपातं
अग्रे
षष्ठी विभक्ति उत्पश्यतः अवाङ्मुखस्य प्रजानां सप्तमी तस्मिन्
इतोपि एकमस्ति षष्ठी
एकम् अवाङ्मुखस्य प्रजानाम्
इदानीमेव उक्तं किल प्रथमा इति पृष्टं तत् षष्ठी पालयितुः इति षष्ठी पालयितुः प्रजानाम् उत्पश्यतः अवाङ्मुखस्य
सप्तमी तस्मिन् क्षणे तावदेव
अव्ययमस्ति वा
अव्ययमस्ति
उपरि इति अव्ययम् सम्यक् अन्वयः
तस्मिन् क्षणे उग्रं
क्रमेण प्रश्नान् पृष्ट्वा
पपात का पपात पुष्पवृष्टिः कीदृशी पुष्पवृष्टिः विद्याधरहस्तमुक्ता अग्रे कथं भगिनि
कुत्र पपात
उपरि पपात कस्य उपरि अवाङ्मुखस्य कीदृशम् अवाङ्मुखस्य उत्पश्यतः अवाङ्मुखस्य कीदृशं प्रजानां पालयितुः.
सो वी केन् टेक् इट् इस् बेटर् टु टेक् प्रजानां पालयितुः उपरि कीदृशस्य वन् इस् विशेषण इस् अवाङ्मुखस्य प्रजानां पालयित इस् दिलीपः. सो कीदृशस्य अवाङ्मुखस्य पुनः कीदृशस्य उत्पश्यतः.
कदा पपात तस्मिन् क्षणे पपात
किम् उत्पश्यतः?
सिंहनिपातम् उत्पश्यतः.
कीदृशं सिंहनिपातम्?
उग्रं सिंहनिपातम्.
उग्रं सिंहनिपातम्, सम्यक्. पूर्णः अन्वयः.
तस्मिन् क्षणे उग्रं सिंहनिपातम् उत्पश्यतः प्रजानां पालयितुं पालयितुः अवाङ्मुखस्य उपरि विद्याधरहस्तमुक्ता पुष्पवृष्टिः पपात.
सम्यक्, धन्यवादः.
धन्यवादः.
प्रतिपदार्थं पश्यामः. पपात अपतत् फेल्. का पपात? पुष्पवृष्टिः, कुसुमवर्षः. अ शावर् आफ् फ्लार्स्. सो अ शवर् आफ् फ्लार्स् फेल् आन् आन् वाट् वी हेव् टु सी. सो फेल् पुष्पवृष्टिः पपात. कीदृशी पुष्पवृष्टिः? विद्याधर हस्तमुक्ता. विद्याधराणां हस्तैः विसृष्टा. So released by the hands of the Vidyadharas. So Vidyadharas are a group of celestial beings. Okay, tatra agre pashyamaha amarakoshe. So kinnaraha, siddhaha, yakshaha, gandharvaha, Vidyadharaha. They are all different groups of celestial beings. They are not devaha, kintu devayonayaha iti kathyate. So they are like the kinnaras or gandharvas. Vidyadharaha api bhavanti. So tesham hastaihi visrishta pushpavrishtihi papata. So the flowers, how did the flowers come? They were released, a shower of flowers released by the hands of the Vidyadharas fell. Kutra papata upari, fell on. Kasya upari, prajanam palayituhu. प्रजानां पालयिता राजा दिलीपः. तस्य उपरि कीदृशस्य प्रजानां पालयितुः? अवाङ्मुखस्य. अवाङ्मुखस्य अधोमुखस्य, हि वास् फेसिङ्ग् डौन्. सो अधोमुखस्य दिलीपस्य उपरि. पुनः कीदृशस्य? उत्पश्यतः. उत्पश्यतः इस् टु आण्टिसिपेट्, टु एक्स्पेक्ट्. So logically, if he is offering himself to the lion should pounce on him. Tarkayataha. Kim utpashyataha? Simha nipatam. Simhasya kesarinaha akramanam. Expecting the jumping or the attack of the lion. Kidrisham simha nipatam? Ugram. Bhikaram simha nipatam. So the ugra brings out the contrast with the pushpavrishti. He was expecting something terrible. Instead, the gentle shower of flowers fell. So, Ugram Simha Nipatam Utpashyataha Prajanam Palayituhu Upari. Kada Tasmin Kshane Jhatiti. Immediately. It is as soon as he keeps his weapon aside and he bows down in front of the lion as an offering himself to the lion. Immediately, instead of the lion pouncing on him, there was a pushpavrishti. So, tasmin kshane ugram simhanipatam utpashyataha avang mukhasya prajanam palayituhu upari vidyadhara hastamukta pushpavrishtihi papata. Bhikaram kesarinaha akramanam tarkayataha adhomukhasya rajnyaha dilipasya urdhvam. So on the King Dilipa, who was standing with his head bowed and expecting the terrible attack of the lion, Vidyadharanam karaihi visrishtaha kusuma varshaha apatat. So a shower of flowers fell on him. Flowers which were released by the hands of the Vidyadharas. Tasmin kshane palayituh prajanam utpashyatasimhanipatamugram avangmukhasyopari pushpavrishtihi papata vidyadharahastamukta. Vyakaranam shaha. So just a note, since we have crossed several things for the last class and also this class, I am not taking each and every word, because very common words like saha, eshaha, we have done lots of times. So jnayate ityataha maya na svikriyate. So I am only taking, I am leaving out some of the very common words. Nalini Bhagini. Kshane.
Tasmin kshane. Saptami vyakti.
Vachanam. Hari Om. Na shruyate. Hari Om, Bhagini.
Hello.
Vadatu.
Shruyate
va? Saptami vibhakti. Shruyate. Saptami vibhaktau kim vachanam?
Shruyate va?
Shruyate. Saptami vibhakti hi kim vachanam? Are you able to hear me? Mahalakshmi Bhagini.
Namaste. Harantaha pullingaha saptami vibhakti ekavachanam.
Kshanaha iti akarantaha pullingaha saptami ekavachanam. Palayituhu.
Lukarantaha pullingaha ashti.
Kaha? Rikarantaha pullingaha.
Shashti ekavachanam.
Shashti ekavachanam. Palayitru. Iti rikarantaha pitru shabdavat athava dhatri shabdavat palayita palayitarau palayitaraha shashti ekavachane palayituhu. Atra prakriti pratyayaha
trich.
Pal dhatoho trich iti pratyayaha kridanta shabdaha palayituhu prajanam.
Akarantaha strilingaha shashti vibhakti ekavachanam bahuvachanam.
Bahuvachanam. Praja shabdaha bahuvaram prayuktaha kalidasena asmin sarge. Utpashyataha.
Takarantaha pullingaha shashti ekavachanam ut upasattam. Utpashyataha.
Upasargaha dhatuhu
drish.
Pratyayaha
ikta pratyaya
utpashyant. Utpashyan. Utpashyantau.
Shatru pratyaya.
So he who was expecting. So ut upasargaha drishadhatuhu shatru pratyayaha utpashyat iti pratipadikam shashti vibhaktihi. Simha nipatam.
Akarantaha pullingaha dvitiya vibhaktau ekavachanam.
Vigrahaha.
Simhasya nipataha nipatam shashti tatpurusha.
Simhasya nipataha tam shashti tatpurusha. Ugram.
Akarantaha pullingaha dvitiya vibhaktau ekavachanam.
Samyak. धन्यवादः. अग्रे प्रिया भगिनी.
अवाङ्मुखस्य अकारान्तपुल्लिङ्गः षष्टिविभक्तौ एकवचनम्.
सम्यक् समासः.
समासः अवाङ्मुखं यस्य सः तस्य बहुव्रीहि.
सम्यक् उत्तमम्. अवाङ्मुखं यस्य सः बहुव्रीहिसमासः तस्य अवाङ्मुखः इति. सो अवाक् शब्दः टेक्निकली इट् मीन्स् ऐ मीन् द प्रैमरी मीनिङ्ग् इस् दट् आफ् अ डिरेक्षन् द सौत्. प्राक् प्रत्यक् उदक् अवाक्. प्राक् इस् ईस्ट्, प्रत्यक् इस् वेस्ट्, उदक् इस् नार्त् एण्ड् अवाक् इस् सौत्. बट् कण्टेक्स्चुली दे आल्सो हाव् अदर् मीनिङ्ग्स्, अर्लियर्, लेटर्, अप्पर्, लोवर् इत्यर्थः. अत्र तु अधः इत्यर्थः अवाक् शब्दस्य, अधोमुखस्य इत्यर्थः. उपरि इति अव्ययम्. पुष्पवृष्टिः.
पुष्पवृष्टिः इकारान्तस्त्रीलिङ्गः प्रथमाविभक्तौ एकवचनम्. पुष्पाणां वृष्टिः षष्ठी तत्पुरुषः.
सम्यक्. पुष्पाणां वृष्टिः, पुष्पवृष्टिः षष्ठी तत्पुरुषः. उत्तमम्. पपात.
पपात पत् धातोः लिट्लकारः प्रथमपुरुषः एकवचनम्.
सम्यक्. पपात इत्यत्र पत् धातुः लिट्लकारः प्रथमपुरुषः एकवचनम्. पतल् गतौ इति धातुः. पतति लिट्लकारे पपात. विद्याधरहस्तमुक्ता.
आकारान्तस्त्रीलिङ्गः प्रथमाविभक्तौ एकवचनम्. विद्याधरहस्तमुक्ता. विद्याधरहस्तेभ्यः मुक्ता. विद्याधराणां हस्ताः. षष्ठी तत्पुरुषः विद्याधराणां हस्ताः. अनन्तरं विद्याधरहस्तेभ्यः मुक्ता पञ्चमी तत्पुरुषः.
विद्याधराणां हस्ताः षष्ठी. सो सिमिलर् टु द प्रीवियस् वर्स्, अत्र पञ्चमी युज्यते. समासे तृतीया इस् बेटर्, ऐ मीन् ईजियर् टु जस्टिफै तृतीया तत्पुरुष. विद्याधरहस्तैः मुक्ता तृतीया तत्पुरुषः. सो तत्र यथा उक्तम् अमरकोशे, अमरा निर्जरा देवाः इति देवानां विषये उक्त्वा, विद्याधर अप्सरः यक्ष रक्षस् गन्धर्व किन्नर पिशाच गुह्यक सिद्ध भूत अमी देवयोनयः. All these are devayonis, that are, they are of divine origin, not exactly at the level of devas. Tatra vidyadharaha api santi. Dhanyavadaha. Tasmin kshane palayituh prajanam utpashyata simhanipatamugram avang mukhasyo paripushpa vrishtih papata vidyadharahastamukta. Atra upajatihi vrittam bhavati. अद्य श्लोकद्वयं दृष्टं. दिलीपः स्वदेहं सिंहाय अर्पयति, किन्तु सिंहस्य आक्रमण अपेक्षया तस्य उपरि पुष्पवृष्टिः पतति. किमर्थं पुष्पवृष्टिः इत्यादि अग्रिमवर्गे पश्यामः. अग्रे श्लोकद्वयम् अग्रिमशनिवासरे मङ्गलं करोमि. ततः सन्देहाः, प्रश्नाः सन्ति चेत् पृच्छन्तु. अग्रिमः वर्गः शुक्रवासरे 20 दिनाङ्के भविष्यति. वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ, मम पाहि गुरो. Any questions? You can raise your hands if you have any or type them out. Asti, Astu. Tarhi Agre Milamaha. Dhanyavadah.